अस्तु. गतसप्ताहे तु वयं स्नेहविषये चर्चां समापितवन्तः. नैयायिकाः अपि तु वैयाकरणयोः मध्ये कः मतभेदः आसीत्, पिण्डीभावः भवति इत्यस्मिन् प्रयोगे क्रियाद्वयं वर्तते, तस्य वैशिष्ट्यं किम्, अथवा तादृशप्रयोगः सामान्यः एव सनन्तादिरूपेषु भवति इति वैयाकरणानां मतम् अपि वयं दृष्टवन्तः. तेन स्नेहस्य चर्चा समापिता अस्ति. इदानीं तु शब्दविषये चर्चा जायमाना अस्ति. विद्याधरी पुस्तके पेज् 117 इति. अस्तु, पुष्पा भगिनी आरम्भं करोति वा? शब्दनिरूपणम् इति प्रकरणं तस्मात् आरभ्य पठति.
शब्दनिरूपणम् श्रोत्रग्राह्यो गुणः शब्दः. आकाशमात्रवृत्तिः, सः द्विविधः. ध्वन्यात्मकः वर्णात्मकः च इति. तत्र ध्वन्यात्मकः भेर्यादौ वर्णात्मकः संस्कृतभाषादिरूपः इति. अत्र विवरणं कुर्मः
भवती प्रयत्नं करोतु, शक्यं चेत् समीचीनमेव.
ग्राह्यं तु एकगुणः शब्दः.
शब्दः इति गुणः, तत्तु सत्यमेव. श्रोत्रग्राह्यः इत्युक्ते
श्रोत्रे ग्राह्यं कुर्मः चेत् तत्तु एकगुणः.
शब्दः इति गुणः श्रोत्रेण ग्राह्यः भवति इति. श्रोत्रेन्द्रियम् इति अस्ति खलु, कर्णीयत् अस्ति श्रोत्रेन्द्रियम् इति, तेन ग्राह्यः भवति.
ग्राह्यम् अस्ति चेत् तत्तु गुणः. गुणः शब्दः. आकाशमात्रवृत्तिः, तत्तु आकाशमात्रवृत्तिः. तत्
वृत्तिः इत्युक्ते किं?
वृत्तिः तु भावः न?
आम् आम्. कीदृशभावः, केन भवति, धातुः कः? इत्युक्ते वृत्तिः इति वदामश्चेत् क्रियापदं किं?
वर्तते.
वर्तते इति. तर्हि
आकाशमात्र वर्तते, तत्तु शब्दः.
शब्दः आकाशे वर्तते इति.
शब्दः आकाशे वर्तते. मात्र किं? मात्र
मात्र इत्युक्ते अन्यत्र कुत्रापि वर्तते वा शब्दः? शब्दस्य अधिकरणं किम्? आकाशः एव वा आकाशमेव इति.
सः द्विविधं, तत्तु द्विविधः अस्ति शब्दः. ध्वन्यात्मकः वर्णात्मकः च इति. ध्वनि प्रकारे एकः वर्णनं कर्तुम् एकम्
वर्णः.
तत्र ध्वन्यात्मकः भेर्यादि भेर्यादौ तत्तु न
भेर्य इत्युक्ते वाद्यम् इति पर्कशन् वदामः खलु पर्कशन् इन्स्ट्रुमेण्ट् यत्किमपि भवतु मृदङ्गम् अपि तादृशं वाद्यमस्ति यस्मिन् शब्दः जायते
भेर्यादौ दौ तु द्वे अस्ति न
भेर्यादि आदयः आदौ भवति इत्युक्ते तत्र सप्तमी अस्ति
सप्तमी अस्ति सप्तमी हा वर्णात्मकः संस्कृतभाषादिरूपः तत्तु वर्णनीयकृतं शब्दः संस्कृतभाषादिरूपः
संस्कृतभाषायां भवति भाषायां यत् अस्ति वर्णरूपेण वा पदरूपेण शब्दरूपेण तत्तु तादृशशब्दः इति अस्तु समीचीनं भगिनि अस्तु अग्रे सुनील महोदय
भगिनि प्रयत्नं करोमि
आम् आम्
क्रमप्राप्तं शब्दं लक्षयति
आं भगिनि तदनन्तरं सुनील महोदय पठति
क्रमप्राप्तं शब्दं लक्षयति श्रोत्रग्राह्यो गुणः शब्दः इति अत्र लक्षणवाक्ये यत् वक्तव्यं तत् रूपनिरूपणे उक्तं तत्रैव द्रष्टव्यम् आकाशमात्रवृत्तित्वमपि आकाशनिरूपणे समर्पितम् इदानीं शब्दः इति गुणः तस्य लक्ष्यमेव अस्ति पुनः अत्र लक्षणवाक्यमस्ति श्रोत्रग्राह्यो गुणः शब्दः इति अतः अत्र दलद्वयमस्ति श्रोत्रग्राह्यः इति एकः गुणः इति अन्यः इति शब्दस्य विशेषणवाक्यमस्ति अत्र लक्षणवाक्ये यत् अस्ति तद् पूर्वं रूपनिरूपणे एव आसीत् अतः आकाशमात्रवृत्तित्वम् अपि इति पूर्वम् आकाशस्य निरूपणविषये अपि वयं दृष्टवन्तः
परन्तु रूपनिरूपणे किम् उक्तम्
अत्र शब्दः इति
रूपनिरूपणे दलसार्थक्यं दृष्टवन्तः
अत्र दलसार्थक्यं किम् इति
किञ्चित् वदतु तस्य विषये
अत्र दलद्वयम् अस्ति अत्र श्रोत्रग्राह्यः अन्यः अस्ति गुणः इति तत्र दलद्वयम् अस्ति चेत् एकैकस्य दलस्य निष्कासनेन किं भवति इति वयं दृष्टवन्तः अतः अत्र श्रोत्रग्राह्यः इति त्यजामः चेत् केवलं गुणः शब्दः इति अस्ति अतः अन्यगुणेषु अतिव्याप्तिः भवति अतः श्रोत्रग्राह्यः इति त्यक्तुं न शक्नुमः पुनः गुणः इति त्यजामः चेत् अत्र शब्दत्वम् इति तत्र तत्रापि अतिव्याप्तिः भवति गुणत्वम् इति स्वीकुर्मः चेत् अत्र जातिः जात्यौ अतिव्याप्तिः भवति गुणत्वमिति न वदामः चेत्
कथम् इति किञ्चित् विवृणोति वा श्रोत्रग्राह्यः इति केवलं श्रोत्रग्राह्यत्वम् इव वदामश्चेत् कथम् अतिव्याप्तिः भवति शब्दत्वे
अत्र शब्दः इति स्वीकुर्मः चेत् अत्र शब्दत्वम् अस्ति केवलं शब्दत्वम् इति जातिः अस्ति चेत् तद् शब्दत्वम् इति जातिः इति वक्तुं न शक्नुमः गुणः गुणत्वम् इति अपि योजनीयं तत्र
इत्युक्ते उदाहरणत्वेन पृथिव्यां गन्धः अस्ति खलु, गन्धः केन ग्राह्यः भवति?
घ्राणेन्द्रियेण ग्राह्यः भवति.
आम् अस्तु, तर्हि घ्राणेन्द्रियं केवलं गन्धमेव गृह्णाति वा गन्धत्वम् अपि गृह्णाति?
गन्धं गृह्णाति,
गन्धं गृह्णाति अपि तु गन्धत्वम् अपि खलु. गन्धत्वम् इति यः भावः अस्ति वा यः धर्मः अस्ति तस्य तस्य ग्रहणम् अपि भवति इन्द्रियेण इति कृत्वा अत्रापि शब्दत्वस्य ग्रहणं श्रोत्रेन्द्रियेण भवति, न केवलं शब्दः शब्दत्वम् अपि गृह्यते गृह्यते इति कृत्वा केवलं श्रोत्रग्राह्यत्वं गुणं त्यक्त्वा श्रोत्रग्राह्यत्वम् एव वदामश्चेत् शब्दत्वजातौ अतिव्याप्तिः भवति यथा भवता उक्तम्. अस्तु, अतः एव गुणत्वं गुणः इति वक्तव्यं भवति, यतोहि शब्दत्वम् इति गुणः न, तत्तु धर्मः अस्ति, तेन तस्य निवारणं भवति, अतिव्याप्त्याः निवारणं भवति.
अनन्तरम् आकाश असमप्रवृत्तित्वस्य विवरणं तत्र आकाशनिरूपणे वयं दृष्टवन्तः.
आकाशे आकाशमात्रवृत्तित्वं किञ्चित् वदतु आकाशविषये अपि. कीदृशं द्रव्यमस्ति आकाशः?
अत्र शब्दः आकाशे एव वर्तते इति अस्ति, शब्दस्य अधिकरणम् आकाशे एव अस्ति इति तदेव वयं दृष्टवन्तः.
परन्तु कीदृशं द्रव्यम् अस्ति आकाशः?
आकाशः इति नित्यद्रव्यम् अस्ति.
नित्यम् अस्ति, अपि तु
अत्र आकाशः इति उपाधिभेदेन एव स्वीकुर्मः.
अत्र तु तस्य अंशः कः, कीदृशः अस्ति आकाशः? अस्तु, प्रथमं तु आकाशः एव आधिकरणम् इति कथं जानीमः?
अत्र आकाशस्य निरूपणे दृष्टं शब्दगुणं आकाशकम् इति, तद् विभुः अस्ति नित्यं च इति वयं दृष्टवन्तः.
महोदय, श्रोत्रेन्द्रियेण ग्रहणं भवति इति कृत्वा शब्दं वयं जानीमः, परन्तु शब्दस्य अधिकरणं कथं जानीमः?
तत्र आकाशे एकः भवति इति किल,
कथं तु कथं जानीमः आकाशे एव वर्तते इति? आकाशस्य ज्ञानं कथं भवति? अन्य कोऽपि सहायं करोति वा?
आं भगिनि, आकाशः विभुः अपि च मूर्तद्रव्यं नास्ति इति कृत्वा तस्य प्रत्यक्षं न कर्तुं शक्यते, किन्तु अनुमानं कर्तुं शक्यते. शब्दः वयं शृणोति, शब्दः इति गुणः, गुणः तु स्वयं यत्र कुत्रापि न वर्तते, किन्तु द्रव्ये एव तद् भवति, द्रव्ये तस्य निष्ठत्वं निष्ठात्वम् अस्ति इति कृत्वा यदि शब्दम् इति गुणः वयम् अङ्गीकुर्मः तदा तस्य आधारीभूतद्रव्यं किमपि अस्ति इति वक्तव्यं, तद् आकाशः इति अनुमानं कृत्वा अनुमानेन आकाशः इति द्रव्यः अस्ति इति वयं ज्ञातुं शक्यते.
समीचीनम् इति अनुमानेनैव वयं जानीमः यत् यथा वायुः विषये अस्माभिः दृष्टमासीत् स्पर्शः तस्य स्पर्शः भवति खलु, वायोः स्पर्शः भवति त्वचा, परन्तु वायोः दर्शनं न भवति. अतः अनुमानेनैव वयं ज्ञातुं शक्नुमः यत् तस्य अधिकरणं भवेत् इति. तथैव अत्रापि शब्दस्य अधिकरणं भवेत् इति अनुमानेन वयं जानीमः आकाशः इति अधिकरणं भवेत् इति तस्य.
स्पर्शं कथं कर्तुं शक्नुमः
वायुविषये?
आकाशं स्पर्शं न कर्तु
न आकाशः इति न, वायुविषये खलु, वायोः स्पर्शः भवति खलु. न ओ कथम् अनुमतिः भवति इति प्रश्नः वा?
स्पर्शम् इति त्वम् उक्तं
न, आकाशस्य स्पर्शनं न भवति, परन्तु आकाशस्य ग्रहणमपि न भवति, तस्य प्रत्यक्षमेव न जायते, यतोहि विभुद्रव्यमस्ति, अपि विभुद्रव्यमस्ति खलु, कालः, दिक्, आकाशः, एतेषु विषयेषु प्रत्यक्षमेव न जायते, इन्द्रियेण न ग्रहीतुं शक्नुमः, परन्तु अनुमानमेव कर्तुं शक्नुमः गुणं दृष्ट्वा गुणस्य अधिकरणं भवेत् इति अनुमितिः जाता. अस्तु, अग्रे शुकवनं महोदय, भवानेव पठतु.
अहं पठामि भगिनि. अस्य शब्दस्य स्वरूपमादाय कारणम् आदाय च विभागः, वर्णध्वनिभेदेन विभागः स्वरूपमादाय. घण्टताल्वादिविविधस्थानेषु जिह्वाद्यभिघातेन उत्पद्यमानः वर्णः, सः एव च वर्णान्तरैः विलक्षणक्रममापन्नः पदमिति व्यवहारयोग्यः भवति. तच्च पदमेव पदान्तरयुक्तं वाक्यमिति प्रसिद्धं, शक्तिग्रहे सति शाब्दप्रमां च जनयति. अस्य शब्दस्य स्वरूपमादाय कारणमादाय च विभागः. इदानीं शब्दस्य लक्षणं किम् इति वयं दृष्टवन्तः, तस्य विभागः केन कारणेन भवति इति अत्र उक्तं. द्विविधविभागः भवति, एकं तु स्वरूपम् आदाय, द्वितीयं तु कारणम् आदाय. अग्रे उच्यते स्वरूपं किम् इति, कारणं किम् इति. वर्णध्वनिभेदेन विभागः स्वरूपम् आदाय, शब्दस्य स्वरूपम् आदाय वर्णः अपि च ध्वनिः इति स्वरूपं स्वरूपस्य आधारेण विभागद्वयं शब्दस्य कृतं, वर्णम् इति एकं, वर्णः इति एकं, ध्वनिः इति अपरम्. कण्ठताल्वादि विविधस्थानेषु जिह्वाद्यभिघातेन उत्पद्यमानः वर्णः. वयं यदा पाणिनि पठित व्याकरणं पठितवन्तः, तत्र अकुह विसर्जनीयानां कण्ठः, इचुषाणां तालुः इत्यादि, इत्युक्ते कुत्र सम्भवति शब्दः, तद् आधारेण अकारं वा कवर्गीयवर्णाः वा हवर्गः वा विसर्गः एते सर्वे कण्ठे उद्भव्यन्ते इति कारणात् तेषां कण्ठः इति नामकरणं दत्तमस्ति. तालु इत्युक्ते इच्छुषाणां भवति भगिनि
कण्ठव्याः इति खलु
कण्ठव्याः आम् कण्ठव्याः इति अपि च तालौ इकारः चवर्गीयः यकारः तालव्यशकारः एतेषाम् उत्पादनं भवति इति कृत्वा तालव्यः एतादृशं कण्ठः तालुः मूर्धा दन्ताः ओष्ठाः नासिकाः कण्ठतालुः कण्ठोष्ठम् एतादृशं वयं वर्णसमूहस्य विभजनं कृत्वा तत्र कुत्र तत् उत्पद्यते तत् आधारेण तस्य विभजनं तादृशं कण्ठताल्वादि विविधस्थानेषु विविधपदेन मूर्धा दन्ता इत्यादिकम् उक्तं सूचितमस्ति. जिह्वा अभिघातेन अभिघातम् इत्युक्ते संयोगः यत्र कण्ठे वा तालौ वा अस्माकं जिह्वायाः संयोगः भवति चेत् तत्र एव शब्दः उत्पद्यते तस्य नाम वर्णः इति सः एव च वर्णान्तरैः विलक्षणक्रममापन्नः पदमिति व्यवहारयोग्यः भवति. तादृशम् उत्पन्नं वर्णः यदि वयं विलक्षणक्रमेण इत्युक्ते यदि घटः इति वक्तव्यं चेत् प्रथमं घकारस्य उत्पादनं भवेत् अनन्तरं ठकारस्य उत्पादनं भवेत् तादृश क्रमः क्रमेण वर्णस्य उच्चारणेन पदम् इति पुनः उत्पद्यते. किमर्थं पदस्य आवश्यकता इत्युक्ते पदमेव व्यवहारयोग्यः भवति. किमर्थम् इत्युक्ते एकैकस्य पदस्य अर्थः अस्ति इति कृत्वा यदि वयं पयं पदम् उपयोगं कुर्मः चेत् तेन यत् अस्माकं मनसि विवक्षा आसीत् तत् अन्येषां कृते वक्तुं शक्नुमः इति कारणात् प्रथमं वर्णः उत्पादनं भवति तदनन्तरं एकं विलक्षणं क्रमेण वयं वर्णः वर्णाः उच्चार्यन्ते चेत् तत् पदम् इति भवति पदमेव व्यवहारयोग्यः भवति इति तच्च पदमेव पदान्तरयुक्तं वाक्यं पदद्वयं वा त्रयं वा इतोपि अधिकं वा पुनः क्रमेण वदामश्चेत् तदेव वाक्यम् इति भवति. तेन शक्तिगृहे सति शाब्दप्रमां जनयति. प्रमा इत्युक्ते ज्ञानं. यत् ज्ञानं शब्दरूपेण प्राप्यते तत् शाब्दप्रमा. तादृश शाब्दप्रमा वाक्यं जनयति कदा शक्तिगृहे सति इत्युक्ते एकैकं पदे अपि च एकैकं वाक्ये तत् पदसमूहस्य शक्तिः अन्तर्भूतम् अस्ति. घटः इति वदामश्चेत् सर्वे ज्ञातुं शक्यते घटः इति पदस्य अर्थः किम् इति तस्य विषयस्य ज्ञानम् आधारीभूतविषयस्य ज्ञानं भवति तदेव शक्तिः इति वदामः. यदि तस्य शक्ति वाक्ये अन्तर्भूतं शक्तिः कोऽपि गृह्णाति चेत् तस्मिन् शब्दप्रमाम् उत्पद्यते इति.
तत्र महोदय किञ्चित् उद्देश्यविधेयभावविषये महोदयेन उक्तं वर्गे पूर्वस्मिन् वाक्ये तस्य विषये किञ्चित् वदति वा?
प्रयत्नं करोमि, किन्तु तत् उद्देश्यविधिभावः इति करपत्रं मया न पठितम् एतावत्पर्यन्तं, किन्तु यत् महोदयेन उक्तं तद् अवगतवान् इति भाति. किञ्चित् वदामि यदि दोषः अस्ति चेत् कृपया निवारयतु. अत्र सः एव च वर्णान्तरैः विलक्षणक्रममापन्नः पदमिति व्यवहारयोग्यः भवति इति वाक्ये उद्देश्यविधेयभावः अस्ति इति महोदयेन उक्तं. तत् किम् इत्युक्ते अत्र सः इति पदेन वर्णः इति पूर्वस्मिन् वाक्ये यत् पदमासीत् तदेव सूचितं, तत्तु एकवचने अस्ति. सः इत्युक्ते वर्णः एव, वर्णान्तरैः तत्र बहुवचनम् आगतम्. विलक्षणक्रमम् आपन्नः इत्यपि बहुवचनम् आगतं, पदम् इति पुनः एकवचनम् आगतं. तत् पदमेव व्यवहारयोग्यः. अत्र व्यवहारयोग्यः इत्युक्ते व्यवहारयोग्यः इति पदम् इति पदस्य विशेषणमस्ति. अत्र पश्यामश्चेत् सः इति कर्तृपदं, भवति इति क्रियापदं, किन्तु कर्मपदं किम् इत्युक्ते पदम् इति वा?
न, अत्र कर्मपदम् इति न, पदं भवति इति आयाति अत्र. परन्तु यथा महोदयेन उक्तं, यदि वयं वदामः यत् रामः पुत्रैः सह गच्छति इति, तत्र रामः तु एकवचने अस्ति, पुत्रैः सह समग्रे तु बहुवचनमेव, बहुवचनस्य निर्देशनं भवति, परन्तु क्रियापदं तु एकवचने एव अस्ति.
ओ आमामां, यद्यपि सः अन्य अन्यानां अन्यैः सह आगच्छति, किन्तु तत्र क्रियापदम् एकवचने एव अस्ति इति. आम् आम् आम्,
तत्र व्याकरणविषयः तु एकः, अर्थविषयः तु भिन्नः. इत्युक्ते व्याकरणरीत्या तु एकवचने एव क्रियापदम्, परन्तु अर्थरीत्या तु बहुवचने अस्ति. रामः अपि तु तस्य पुत्राः इति बहुवचने अस्ति तत्र. परन्तु अस्ति वा आगच्छति इत्यस्य प्रयोगः एव भवति एकवचने. तादृशमेव अत्रापि अस्मिन् वाक्ये सः भवति इति एकवचने अस्ति, परन्तु वर्णान्तरैः तस्य मेलनम् अस्ति. वर्णस्य मेलनं वर्णान्तरैः इति कृत्वा पदम् इति व्युत्पन्नं भवति. वर्णानां मेलनं भवति, येन मेलनेन पदम् इति व्युत्पन्नं भवति. अत्र सः इति वर्णस्य निर्देशः यद्यपि भवति, तत्र वर्णसमूहः एव निर्दिष्टः अस्ति. वर्णसमूहेन एव पदम् अपि जातं खलु. यथा महोदयेन उक्तं, वर्णजातिः यत् अस्ति, या जातिः या अस्ति, विशिष्टवर्णैः वर्णानां मेलनेन पदम् उत्पन्नं भवति इति. अत्र सः इत्यनेन वर्णजातिः इति इत्यर्थः. अपि तु
अत्र किम् उद्देश्यं यत् किम्
सः इत्यनेन कस्यचित् उद्देश्यः कस्यचित् उद्दिष्टः भवति इत्युक्ते सः वा सा इति वदनेन कस्यचित् कस्यचित् उद्देश्यः भवति इत्युक्ते सः मम मित्रम् इति वदामश्चेत् सः इति वयं किं सः एव अस्माकं लक्ष्यम् अस्ति वा अस्माकं विषयः अस्ति सः इति. परन्तु सः कीदृशः अस्ति? सः मम मित्रम् इति वदामश्चेत् मित्रत्वम् इत्यस्य धर्मं सः इत्यस्य मनुष्ये वयम् आरोपयामः इति कृत्वा सः उद्देश्यः यस्य उद्दिष्टः यः उद्दिष्टः भवति सः तदेव उद्देश्यः इति वदामः. विधेयः यत् वयम् आरोपयामः यः भावः वा धर्मः वा अन्यत् किमपि वयम् आरोपयामः तस्मिन् तदेव विधेयः इति वदामः. अत्र तु सः इति उद्देश्यः किम् आरोपयामः पदम् इति आरोपयामः पदत्वम्. अपि तु व्यवहारयोग्यत्वम् अपि आरोपयामः इति विधेयद्वयम् अस्ति अत्र. सः
किन्तु व्यवहारयोग्यः इति पदस्य विशेषणमस्ति.
आम् आम् व्यवहारयोग्यः पदम् इति तत्र विशेषणं नास्ति. अतः एव उद्देश्यविधेयभावपदि आगच्छति. पदम् इत्युक्ते नपुंसकलिङ्गम् अस्ति. व्यवहारयोग्यः इति पुल्लिङ्गे अस्ति खलु. अतः एव उद्देश्यविधेयभावस्य प्रयोगः.
अस्मिन् वाक्ये व्यवहारयोग्यः इति सः इत्यस्य विशेषणं वा?
अत्र भवती इत्यस्य अन्वयः कुत्र जायते?
सः
भवति. सः पदं भवति इति वदामः. पुनः सः व्यवहारयोग्यः भवति इति वदामः खलु.
किन्तु यदि पदं नास्ति चेत् व्यवहारयोग्यः न भवति किल?
पदं
केवलं सः व्यवहारयोग्यः भवति इति वदामश्चेत् अर्थः न निष्पद्यते. पदमेव व्यवहारयोग्यः भवति इति कारणात् अहं चिन्तितवान्.
अतः एव पदम् अपि तु पदत्वम् अपि तु व्यवहारयोग्यत्वम् आवश्यकं तत्र.
आं द्वयमपि आवश्यकं.
द्वयमपि आवश्यकं. परन्तु द्वयं विधेयद्वयम् अस्ति. विधेयद्वयम् अस्ति इति कृत्वा एव तत्र अर्थः जातः. तत्र तस्मिन् वाक्ये अर्थबोधकत्वम् अस्ति, अर्थशक्तिः अस्ति खलु.
आं किन्तु तत्र यत् यद्यपि भवत्या उक्तं पदं पदत्वम् अपि च व्यवहारयोग्यत्वम् इति विधेयद्वयम् अस्ति इति. किन्तु यदि पदम् इति वदामश्चेत् यत् व्यवहारयोग्यः तदेव पदं भवितुम् अर्हति किल?
आं महोदय.
इत्युक्ते
परन्तु अतः एव वदामि पदस्य निष्कासनं न मास्तु. विलक्षणक्रमं
किन्तु पदे व्यवहारयोग्यत्वम् अन्तर्भूतम् इति अहं वदामि.
आमाम् आम्. परन्तु पदं पदम् इति कृत्वा व्यवहारयोग्यत्वम् अस्ति खलु.
आम् आम्.
पदं कथं जायते? विलक्षणक्रमं क्रमम् आपन्नः भवति.
आम्
वर्णानां समूहात् विलक्षणक्रमम् आपन्नः भवति येन पदं जायते पदेन व्यवहारयोग्यत्वं जायते. परन्तु अत्र विषयः अस्ति यत् सः इति उद्देश्यः वा वर्णः तस्मिन् पदत्वम् अपि तु व्यवहारयोग्यत्वम् आरोपयामः विधेयरूपेण. स्पष्टं वा?
स्पष्टम्.
अस्तु, अत्र अग्रे पदमेव पदान्तरयुक्तं वाक्यम् इति प्रसिद्ध शक्तिग्रहः इत्युक्ते किम्?
एकैकं पदे वा वाक्ये वा शक्तिः अस्ति, तस्य तत् पदं वा वाक्यं वा किं विषयं सूचयति इति तस्मिन् शक्तिः अस्ति इति कारणात्. घटः इति वदामश्चेत् केवलं घटमेव सूचयति तत्.
तदेव अस्ति अत्र पदपदार्थयोः सम्बन्धः शक्तिग्रहः इति महोदयेन उक्तम्. इत्युक्ते जलम् इति वदामश्चेत् एकं तत्र विषयद्वयम् अस्ति. एकं तु जलम् इति पदं वर्णसमूहेन यत् पदं जातं तत्तु जलम् इति पदार्थः अपि खलु. तयोः सम्बन्धेन एव शक्तिः जायते जले.
जलत्वम्
इति कृत्वा जले शक्तिग्रहः अस्ति इत्युक्ते अर्थबोधकसामर्थ्यं यत् अस्ति पदे तदेव शक्तिग्रहः इति महोदयेन उक्तम्. शाब्दप्रमा तु वाक्ये या शक्तिः अस्ति तत् शाब्दप्रमा इति. शाब्दप्रमा तु शाब्दज्ञानं वा यत् ज्ञानं जायते वाक्येन सा शाब्दप्रमा इति. अवगतं वा?
इत्युक्ते पदपदार्थयोः मध्ये यत् सम्बन्धः वर्तते तदेव शक्तिः. तत् शक्तिः ग्रहणे सति शाब्दप्रमा जायते.
शाब्दप्रमा जायते वाक्येन. समग्रवाक्येन यत् ज्ञानं जायते सा शाब्दप्रमा इति.
इत्युक्ते पदस्य केवलम् एकमेव पदं वदामश्चेत् तत्र शाब्दप्रमा नास्ति इति वा?
आम् तदेव. केवलम् एकस्मिन् पदे या शक्तिः अस्ति तत्तु अयं तु शक्तिग्रहः इति उच्यते. शक्तिग्रहे सति शाब्दप्रमां जायते, शाब्दप्रमां जनयति. तेन वाक्येन वाक्यात् शब्दप्रमां जायते, शब्दप्रमा जायते.
गच्छति इति वदति चेत् कः गच्छति इति प्रश्नम् आयाति. तत्तु शाब्दप्रमां न
गच्छति. प्रायः सः गच्छति इति प्रासङ्गिकरूपेण सः गच्छति वा अन्य कोऽपि गच्छति इति अस्माकं श्रोतुः मनसि ज्ञानम् उदेति चेत् शाब्दप्रमा जायते, शाब्दबोधकज्ञानं जायते इति वदामः.
वाक्ये तु शब्दप्रमा.
आम्
तु शब्दप्रमां नास्ति. अस्तु,
प्रतिपदे तु शक्तिग्रहः अस्ति इति.
किन्तु भगिनी तत्र किञ्चित् सन्देहः अस्ति, केवलं वाक्ये एव शाब्दप्रमा अस्ति इति वक्तुं शक्नोति वा इति. किमर्थमित्युक्ते उदाहरणार्थम् अपरस्तु ध्वन्यात्मकः इति अग्रिमपरिच्छेदमिति ततः आरभ्य मया पठनीयं वा इति अहं पृच्छामश्चेत् सत्यम् इति भवती वदति. तत्र एकमेव पदं किन्तु शाब्दक्रमा मयि जायते एव किल.
आमां पर सत्यम् इति एकं पदं, यद्यपि एकं पदं तत्र वाक्यरूपेण एव उक्तं खलु. तत्र तु वाक्यार्थः एव भवति यद्यपि. परन्तु घटः इति मया अहं वदामि चेत् तत्र शाब्दक्रमा भवति वा? अतः एव प्रसङ्गस्य आधारेण एव वाक्यं वा शाब्दप्रमा वा
अस्तु
भगिनि.
अस्तु अस्तु अग्रे सरला भगिनी पठति वा भगिनी? अस्तु राजेन्द्रमहोदय भवान् पठति
वा? आम् भगिनि पठामि. अपरस्तु ध्वन्यात्मकः कर्तागणादिना उत्पद्यमानः स च एकः सम्भूय वा न कदाचित् पदं वाक्यं वा भवति न अपि शाब्दप्रमां जनयति. हेतुर्भूत्वा अभिप्रायज्ञापने परम् उपयुज्यते. तथाविधशब्दकरणे कर्ता मां बोधयति इति अनुमिते कदाचित् जायमानत्वात्. तथा च पदभावस्वरूपयोग्यत्वं वर्णात्मकस्य विशेषः, तद् योग्यत्वं ध्वन्यात्मकस्य विशेषः. तत् अयोग्यत्वम् आमां भगिनि क्षम्यतां. तद् अयोग्यत्वं ध्वन्यात्मकस्य विशेषः इति तम् आदाय अयं विभागः. अस्तु उपरिचन परिच्छेदे यथा महोदयेन पठितं तत्र तु शब्दस्य स्वरूपं कीदृश्यः अस्ति. तत्र वर्णात्मक शब्दस्य स्वरूपं किं दृश्य कीदृशी अस्ति तत्र विवरणम् आसीत्. इदानीम् अत्र अपरम् अस्ति ध्वन्यात्मकः शब्दः. ध्वन्यात्मकशब्दः तत्र तस्य स्वरूपं कीदृशी अस्ति तत्र एतस्मिन् परिच्छेदे तस्य विवरणम् अस्ति. कर्ताडनादीनाम् उत्पद्यमानः यथा कर्ताडना यथा हस्तद्वयसंयोगेन यः ताडनं भवति तत् तया एकम् ध्वनिः उत्पद्यते. सा ध्वनिः च एकः सम्भूय वा न कदाचित् पदं वाक्यं वा भवति. सा ध्वनिः यथा कर्ताडनेन या ध्वनिः उत्पद्यते सा ध्वनिः एकः सम्भूयः एक ध्वनिः अस्ति न कदाचित् पदं वाक्यं भवति न अपि शाब्दप्रमां जनयति. यथा तत्र उपरि आसीत् वर्णान्तैः विलक्षणक्रममापनः पदम् इति व्यवहारयोग्यः भवति. अत्र तु एक सम्भूय ध्वनिः अस्ति तत् कारणतः तत् कदाचित् पदं वाक्यं न भवति नापि शाब्दप्रमां जनयति. हेतुर्भूत्वा अभिप्रायज्ञापने परम् उपयुज्यते. हेतु यत् यस्किमपि हेतुर्भूत्वा यत् किसपि यस्य कस्यापि कृते अभिप्रायज्ञापने परम् उपयुज्यते. तत्र कमपि अभिप्रायज्ञापने इत्युक्ते आह्वानं तत् यः कोऽपि हेतुः अस्ति तस् कर्ताडना कृते आह्वानं कर्तुं कृते उपयुज्यते तत् कर्तारणं हेतुर् भूत्वा तथा विद् शब्दकर्मे कर्ता मां बोधयति इति अनुमते तादृशी शब्दकर्मे यः कर्तारणं करोति सः कर्ता मां बोधयति इति अनुमिते अनुमानं कर्तुं शक्नुमः अनुमीयते अस्माभिः यत् कर्ता मां बोधयति कदाचित् जायमानत्वात् तत् किं भगिनि जायमानत् कदाचित् जायमानत्वात्
इति का विभक्तिः
तत्तु पञ्चमी विभक्ति
पञ्चमी इत्युक्ते अत्र हेतुः का हेतुः भूत्वा इत्युक्ते
आह्वानं कुर्मः
हेतुर्भूत्वा परम् उपयुज्यते इत्युक्ते किं कः
हेतुः अस्ति यं कपि यं कमपि आह्वानं कुर्मः
परन्तु
आह्वानं कृते तत् उपयुज्यते
अभिप्रायज्ञापने इति अभिप्राय आह्वानम् इति अभिप्रायः
आम्
परन्तु हेतुः कः अत्र
आह्वानं कर्तुम् इच्छामः कर्ता यम् आह्वानं कर्तुम् इच्छति सा हेतु
आह्वानं कर्तुम् इच्छति तर्हि किं करोति कर्ता करताडनम् इति ध्वन्यात्मकशब्दः खलु अतः एव हेतुः भवति इति ध्वन्यात्मकशब्दः हेतुः भवति इति हेतुः अस्ति अत्र अत्र कश्चन ध्वनिः अस्ति इति कृत्वा श्रोतुः मनसि अनुमानं भवति अनुमितिः भवति ओ सः करताडनं करोति अतः माम् आह्वयति खलु इति तस्य मनसि अनुमितिः भवति अतः एव अनुमितेः कदाचित् जायमानत्वात् इत्युक्ते तथाविधशब्दकरणे इत्युक्ते ध्वनियात्मकशब्दकरणे शब्दकरणम् अस्ति चेत् कर्ता मां बोधयति इति अनुमितिः जायते
अस्तु
इति एव इति
आमां भगिनि इदानीं स्पष्टं तथा च पदभावस्वरूपयोग्यत्वं वर्णात्मकस्य विशेषः
एकनिमिषम् महोदय जायमानत्वात् किं
जायमानत्वात् इत्युक्ते यः
कारणपञ्चमी अस्ति इति कारणपञ्चमी अतः कारणम् इति कृत्वा अग्रे किं जायते
अनुमीयते किमपि आह्वानं यत् कस्यापि आह्वानं भवति सा चिन्तयति मां बोधयति सा इति अनुमीते
इत्युक्ते तत्र हेतुः भूत्वा अभिप्रायज्ञापने परम् उपयुज्यते इति अस्ति खलु तादृशी अनुमितिः जायते इति कृत्वा तस्य उपयोगः भवति इति अर्थः
श्रोतुः मनसि
आम् 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 तत्र कारण शुकवन महोदय भवतः चिन्तनं किम् अस्ति अत्र किमर्थं जायमानत्वात् इति
तदेव यद् भवत्या उक्तं हेतुपञ्चमी अस्ति तत् अनुमितेः कारणमस्ति इति
राजेन्द्रमहोदय अवगतं वा? तस्मिन् मनसि अनुमतिः जायते, किं का अनुमतिः? कर्ता मां बोधयति इति अनुमतिः जायते इति कृत्वा सामान्यप्रयोगे भवति खलु, कस्यचित् करताडनं वा, हे आगच्छतु इति तादृशप्रयोगः जायते खलु, तदेव.
इत्युक्ते इतोपि प्रायः वक्तुं शक्यते भगिनि, वर्णेन वर्णसमूहेन पदं जायते, पदसमूहेन वाक्यं जायते, वाक्येन शब्दप्रमा जायते, किन्तु अत्र ध्वनिना अनुमितिः जायते. तदेव तयोः भेदः.
समीचीनमेव. अग्रे राजेन्द्रमहोदय.
तथा च पदभावस्वरूपयोगत्वं वर्णात्मकस्य विशेषः. इदानीं पदभावस्वरूपयोगत्वं वर्णात्मक शब्दस्य विशेषः अस्ति, तद् अयोग्यत्वं ध्वन्यात्मकस्य विशेषः. तादृशी योग्यता तत् ध्वन्यात्मकविश शब्दस्य नास्ति, तत् अयोग्यत्वम् अस्ति ध्वन्यात्मकस्य, सः विशेषः अस्ति ध्वन्यात्मक शब्दैः इति. तम् आदाय अयं विभागः, तम् आदाय तत् भेदेन तत् विभागः अस्ति. वर्णात्मकविशेषः पदम् अस्ति अथवा ध्वन्यात्मकविशेषः अन्यत् अस्ति तत् ईदृशी तत् विभागः भवति. तम् आदाय यथा पदभावस्वरूपयोग्यत्वम् अस्ति अथवा अयोग्यत्वं ध्वन्यात्मकस्य विशेषः अस्ति, तम् आदाय तत्र विभागः भवति. शब्दरूपी वर्णात्मकशब्दः अथवा ध्वन्यात्मकशब्दस्य मध्ये तत्र विभागः भवति, तम् आदाय.
इत्युक्ते पदेन यः या अर्थशक्तिः जायते, तादृशी अर्थशक्तिः ध्वनिना न जायते. परन्तु यद्यपि तस्य अर्थबोधकत्वम् अस्ति, पदेन वा शाब्दप्रमया न जायते इति. इति कृत्वा तस्य पदभावस्वरूप अयोग्यत्वम् अस्ति इति. अस्तु, अग्रे सरला भगिनी अस्ति वा? अस्तु
भगिनी, भगिनी इदानीम् अस्मि. पूर्वमहं
भगिनी क्षम्यतां, पूर्वं पदभावस्वरूपयोग्यत्वम् इति किमर्थम् उक्तम्? व्यवहारयोग्यत्वम् इति वदामश्चेत् तत् अवगन्तुं शक्यते. पदभावस्वरूपयोग्यत्वं
पदेन यः स्वरूपं, पदस्य स्वरूपं यत् अस्ति, तेन यः बोधः, ज्ञानबोधः वा यः अर्थबोधः भवति, तस्मिन् कमपि योग्यत्वम् अस्ति खलु. पदेन यः योग्यत्वं, यत् योग्यत्वं जायते, तादृशं
तस्य विग्रहवाक्यं भवत्या वक्तुं शक्यते वा? पदभावस्वरूपयोग्यत्वम् इत्यस्य विग्रहवाक्यं, तत्तु समासः
द्वितीया इति सत्पुरुष पदभावेन. पदभावस्वरूपेण योग्यत्वम् इति चिन्तयामि, परन्तु महोदयमपि पृच्छामि.
हा, केवलं योग्यत्वम् इति वदामश्चेत् तत्र अर्थबोधः न जायते. पदभावस्वरूपेण व्यवहारयोग्यत्वं भवति इति वदामश्चेत् सम्पूर्णं भवति इति.
प्रायः तदेव अर्थः अस्ति, यद्यपि व्यवहारः इति न उच्यते तत्र, प्रायः अर्थः तु तदेव, तथैव इति मन्ये.
हा, किन्तु व्यवहारः इति न वदामश्चेत् स्वरूपयोग्यत्वम् इति आगच्छति किल.
महोदय पृच्छ
पदभाव पदभावेन स्वरूपयोग्यत्वम् इति तत्र अर्थः न जायते,
न जायते इति मन्ये। आम्,
पदभावस्वरूपेण व्यवहारयोग्यत्वं
प्रायः, आम् आम् तदेव
वर्णात्मकस्य विशेषः। हा
आम् अस्तु, अग्रे
अस्तु
सरला भगिनी पठति वा?
आं भगिनि, अपरविभागस्तु कारणम् आदाय संयोगात् विभागात् शब्दात् न शब्दो जायते वर्णः पूर्वोक्तो करताडनेन जायमानध्वनि वा संयोगजः हस्तसंयोगः आकाशे शब्द असमवायिकारणे समवायेन स्थित्वा समवायेन शब्दं जनयति इति सः तादृशशब्दं प्रति प्रथम असमवायिकारणं भवति। विभागजशब्दः वंशे पात्यमाने वंशावयावकाशः विभागेन जायमानः विभागोऽपि अयम् आकाशसमवेतः इति तादृशशब्दं प्रति भवति असमवायिकारण। अस्तु, अपरविभागस्तु कारणम् आदाय प्रथमं वयं लक्षणवाक्ये दृष्टवन्तः शब्दस्य द्वे विभागे अस्ति, एक वर्णात्मक प्रकारम् अस्ति, द्वितीयध्वनात्मको प्रकारम् अस्ति। तस्य कारण द्वे विभागे कथं कृतम् अस्ति कारणस्य आदाय, कारणम् आदाय मीन् ध्वनि यदा भैर्यादि वा करताडनेन भवति एण्ड् वर्णात्मक जिह्वा मुखं कुत्र अपि संयोगात् भवति। सो तत् विभाग शब्दस्य द्वे विभागे कारणस्य आदाय विभक्त भवति। संयोगात् विभागात् शब्दात् न शब्दो जायते, एकं संयोगात् अपि विभागात् शब्दात् न शब्दो जायते।
च च इति भगिनि,
ओ च, ओ ऐ एम् सारि, शब्द तस्य द्वितीयकारणमस्ति संयोग अपि विभाग द्वे अपि शब्दजनयस्य कारणम्
त्रीणि कारणानि सन्ति अत्र, कारणेन यः शब्दः जायते
तस्य कारणसंयोग अपि विभाग,
संयोगः इति प्रथमं कारणं, विभागः इति द्वितीयं,
द्वितीयकारणं,
तृतीयम् इति शब्दः, शब्दात् अपि जायते शब्दः।
ओ त्रीणि कारणानि,
आम् आम् आम्,
ओ अस्तु
अग्रे।
वर्णः पूर्वोक्त प्रथमं संयोगात् मीन्स् वर्णः पूर्वोक्तः करतारिणेन जायमानः वर्णः अपि ध्वनात्मक करतारिणेन जायमान कर यदि द्वे करे संयोग भवति तस्य संयोगात् ध्वनि भवति, तस्य ध्वनि कारणम् अस्ति ध्वनि वा संयोगज संयोगकारणम् अपि यदि वर्णम् उच्यते तस्य वर्णस्य उत्पन्नं कार्यम् अपि संयोग भवति यदा जिह्वा कण्ठे वा तालवे यदि संयोग भवति। हस्तसंयोगः आकाशे शब्दम् असमवायिकारणसमवायेन स्थित्वा समवायेन शब्दं जनयति सः तादृशं शब्दं प्रति प्रथमः समवायिकारणं भवति। इदानीं हस्तसंयोगः यदि अस्ति यथा करतारणेन तत् भवति आकाशे, तस्य अधिकरणं हस्तसंयोगः समवायेन आकाशे स्थित्वा समवायेन शब्दं गुणजनयति इति भवति. समवायेन समानाधिकार्यकारणे स्थित्वा समवायेन कार्यं वा गुणं जयति तद् भवति प्रथमसमवायिकारण इति भवति. अत्र अपि प्रथम असमवायिकारणशब्दस्य जन्यत्वं
समीचीनं. तस्य अन्यत् उदाहरणमस्ति
कपाल प्रथमं वयं पठितवन्तः कपालद्वयसंयोग समवायेन स्थित्वा कपाले समानाधिकरणे कपाल समवायेन घटं जनयति प्रथम असमवायिकारणं
कार्येण सह एकस्मिन् अर्थे
अर्थे
प्रथमविध समवायिकारणस्य निरूपणं खलु.
आम् अत्र हस्तसंयोग
कार्यम् इति किम् अस्ति अत्र
अत्र कार्यमस्ति शब्दजनय
शब्दः
अधिकरणम् अस्ति आकाश
कार्याधिकरणं आकाश
अस्य संयोगः भवति समवेत
समायसम्बन्धेन वर्तते इति कृत्वा अतः अस्य संयोगः इति असमवायिकारणं भवति.
इदानीं विभागजशब्दः वंशे पाठ्यमाने वंश अवयव आकाशविभागेन जायमान इदानीम् इति विभाग अपि शब्दस्य जनयत् शब्दजनयस्य कारणं भवति. विभाग कथं भवति वंशे इत्युक्ते महोदय उक्तवान् शुष्कवृक्षः वंशः भवति तस्य यदि भङ्गनं भवति ध्वनिः आगच्छति
भग्नः यदा भवति तदा ध्वनिः जायते इति.
आम् शुष्क वंशस्य भग्नम् अवयवभग्नं भवति तस्य अधिकरणं यदि आकाशे भवति आकाशे या ध्वनिः जायते तत् भवति समवायिकारणेन. सो विभाग अपि आकाशे समवायिकारणे स्थित्वा आकाश समवायि समवायेन शब्दं जनयति. सो विभाग अपि अयम् आकाशसमवेतः अत्र विभाग भवति आकाशस्य समवेत कारणं कि विभाग समवायेन आकाशे वर्तते इति तादृशशब्दं प्रति भवति असमवायिकारणस्य विभाग अपि संयोगसमाने प्रथमविध असमवायिकारणं भवति.
समीचीनम् अतः कारणेन इत्युक्ते संयोगजेन वा विभागजेन वा शब्दः जायते इति. तृतीयम् अस्ति शब्दतः कथं जायते इति. अग्रे सुनीलमहोदय.
इन्द्रियाणां प्राप्यकारित्वं शब्द शब्दज शब्दस्थले अस्ति विस्तरेण निरूपणीयं. वक्तुः मुखं यद्देशे वर्तते त्वाल्वाद्यभिघातैः तद्देशावच्छेदेनैव आकाशे शब्दोत्पत्तिः भवति. स च मुखावच्छेदेन आकाशे उत्पन्नः शब्दः कथं श्रोतुः श्रोतेन्द्रियं प्राप्नुयात्. शब्दे गुणात्मके कथं श्रोत्र देशप्राप्नुकूला क्रिया भवेत्. प्राप्य अनुकूला क्रिया भवेत्. द्रव्यनिरूपणावसरे आवेदितमेव अस्माभिः गुणक्रिययोः द्रव्यमात्रनिष्ठत्वम्. अत्र इदानीम् इन्द्रियाणां प्राप्यकरित्वम् इति अस्ति. अत्र कथं इन्द्रियेण प्राप्यते इति. अतः शब्दजस्थले शब्दजशब्दस्थले अस्ति इति विस्तरेण निरूपणीयमिति. अतः अत्र कुत्र अस्ति इति अधिकं विवरणं करणीयमिति अस्ति. वक्तुः मुखं यद्देशे
वर्तते इत्युक्ते
अत्र स्तोत्रेन्द्रियेण कथं गृह्यते इति एव किल.
शब्दज इत्युक्ते शब्दतः शब्दः कथम् उत्पद्यते इति अस्ति. शब्दज इत्युक्ते तस्मात् उत्पन्नः भवति इति खलु.
ओ तदा कदा इति वा अहं चिन्तितवान्, कुत्र इति चिन्तितवान्.
स्थले इत्युक्ते इत्युक्ते अस्मिन् विषये. हा परन्तु कस्मिन् विषये इत्युक्ते शब्द तृतीयविधं कारणस्य निरूपणं भवति अत्र.
संयोगात् विभागात् शब्दात् इति.
समीचीनम्. अग्रे वक्तुः मुखम्.
अतः वक्तुः मुखं यद्देशे वर्तते त्वाल्वाद्य अभिघादैः तद्देश अवच्छेदेनैव आकाशे शब्दोत्पत्तिः भवति. यदा कश्चन वदति तस्य मुखं कस्मिन् देशे वर्तते, ततः शब्दं जनयति सः. अतः तद्देशे एव आकाशे शब्दस्य उत्पत्तिः भवति. स च मुखावच्छेदेन आकाशे उत्पन्नः शब्दः कथं श्रोतुः श्रोत्रेन्द्रियं प्राप्नुयात्. अतः कश्चन वदति तस्य मुखात् शब्दः भवति, सः शब्दः आकाशे अस्ति, परन्तु तत् सः शब्दः कथं श्रोतुः श्रोतेन्द्रियं प्रति गच्छति, सः शब्दं स्वीकरोति इति प्रश्नः.
अत्र अवच्छेदकस्य आवश्यकता किमर्थम्? आकाश
इदानीम् अत्र एकस्य विभागस्य एकस्य कार्यमेव वदति किल. अत्र कश्चन वदति इति इति एव अस्ति किल. अतः तदेव किल
इत्युक्ते आकाशः तु विभुः अस्ति. तत्र अस्मिन् देशे वर्तते वा तस्मिन् देशे वर्तते इति कथं जानीमः?
अत्र कश्चन वदति तस्य मुखस्य देशस्य अवच्छेदेनैव.
इत्युक्ते यत्र तस्य शब्दस्य उत्पन्नः भवति उत्पत्तिः भवति तद्देशेन अवच्छेद्यः भवति शब्दः.
अतः श्रोतुः श्रोत्रेन्द्रियं कथं गच्छति इति प्रश्नः. शब्दे गुणात्मके कथं श्रोत्रदेशप्राप्त्यानुकूलक्रिया भवेत्. अतः शब्दः इति गुणः तादृशगुणः श्रोतुः देश स्थले गन्तुं तादृश अनुकूलक्रिया कथं भवति इति.
किमर्थं क्रियायाः चर्चा अत्र?
शब्दः इति गुणः स्वयं न गच्छति इति एव किल. अत्र
किमर्थं
काचित् क्रिया आवश्यकी इति
वयं जानीमः इत्युक्ते परन्तु गमनम् इति किं गमनम् इति क्रिया खलु क्रिया कुत्र कुत्र भवति
क्रिया कश्चन करोति इति एव अस्ति अत्र
न अत्र यदि कश्चन वदति यदि कश्चन वदति तस्य वचनं श्रोतुः श्रोतेन्द्रियं पर्यन्तं गन्तव्यं भवति खलु गमनम् इति यदि वदामः गमनम् इत्युक्ते क्रिया अस्ति क्रिया कुत्र कुत्र जायते मूर्तद्रव्येषु एव जायते तत्तु नियमः अस्ति मूर्तद्रव्याणां निरूपणसमये अस्माभिः पठितम् अस्ति मूर्तद्रव्येषु एव क्रिया जायते इति पञ्चविधकर्माणि सन्ति खलु उत्क्षेपणम् अपक्षेपणं गमनम् आकुञ्चनम् इत्यादयः क्रियाः मूर्तद्रव्येषु एव भवन्ति मूर्तद्रव्याणि कानि मूर्तद्रव्याणि कानि
पृथ्वी जल
आं भगिनि वदतु
पृथ्वी जल मन तेज
तेजः
पृथ्वी जल तेज मन एकं
वायुः अपि खलु याति अतः पञ्च मूर्तद्रव्याणि सन्ति गमनं भवति तेषां तेषु क्रिया भवन्ति क्रियाः भवन्ति इति कृत्वा तानि मूर्तद्रव्याणि सन्ति पृथ्वी जलं तेजः वायुः मनः इति अस्तु अग्रे महोदय
अत्र गुणे क्रिया स्वयं न भवति अतः कया क्रियया अत्र गमनं भवति इति प्रश्नः द्रव्यनिरूपणावसरे आवेदितमेव अस्माभिः गुणक्रिययोः द्रव्यमात्र निष्ठत्वम् अतः द्रव्यनिरूपणावसरे एवं वयं गुणक्रिययोः द्रव्यमात्र निष्ठत्वं वयं दृष्टवन्तः गुणः स्वयं न गच्छति इति
किं महोदय
अत्र शब्दः इति गुणः स्वयं न गमनं भवति कीदृशक्रियया अत्र द्रव्यमात्रनिष्ठत्वमेव
द्रव्येषु एव गुणाः वर्तन्ते द्रव्येषु एव क्रियाः अपि वर्तन्ते गुणेषु क्रिया न वर्तते इति अस्तु तर्हि शब्दः इति गुणः आकाशस्य गुणः तस्मिन् कथं क्रिया जायते इति प्रश्नः अग्रे शुकवन महोदय
आं भगिनि तर्हि श्रोत्रेन्द्रियं वक्तृमुखदेशं यातु इति चेत् नैतदपि सम्भवति श्रोत्रत्यापि हि आकाशस्वरूपत्वं विभुत्वं क्रियारहितत्वं च तन्निरूपणे निरूपितं चक्षुरिन्द्रियस्य च मूर्तस्य सम्भवति क्रिया यत् घटं स्वस्थानस्थितमपि प्राप्य युक्त्वा तत्प्रत्यक्षं जनयति तर्हि श्रोत्रेन्द्रियं वक्तृमुखदेशं यातु इति चेत् न एतदपि सम्भवति पूर्वस्मिन् परिच्छेदे पठितं यत् शब्दः यद्देशे उत्पद्यमानः अस्ति तद्देशे एव अवच्छिद्वा वर्तते इति एकं शब्दः इति गुणः तस्मिन् क्रिया यदा कदापि न जायते इति द्वितीयं गुणः द्रव्ये वर्तते शब्दः तु आकाशे वर्तते आकाशस्तु एकं नित्यं अपि च विभुः इति कारणात् आकाशे क्रिया न जायते इति अपरम् एतत् सर्वं पूर्वस्मिन् परिच्छेदे वयं दृष्टम् इत्युक्ते आकाशेन शब्दः यत्र कुत्रापि न प्राप्तुं शक्यते इति पर्यवसति इति चेत् यदि श्रोतुः श्रोत्रेन्द्रिये शब्दः न जायते न गच्छति चेत् तस्य श्रवणं कथं भवति इति प्रश्नः वक्तुः मुखे एव शब्दः वर्तते तत् श्रोत्रेन्द्रियं प्रति न गच्छति चेत् श्रोता न श्रोतुं शक्यते किन्तु तादृशं गन्तुं सामर्थ्यं शब्दे वर्तते इति पृष्टे सति शब्दे न वर्तते किन्तु तद्गुणः श्रोत्रेन्द्रिये वर्तते वा इति अत्र चर्चा श्रोत्रेन्द्रियं किम् इत्युक्ते तत्तु आकाशमेव आकाशस्वरूपमेव इति श्रोत्रेन्द्रियनिरूपणे अस्माभिः पठितम् आकाशस्वरूपम् इत्युक्ते विभुत्वं श्रोत्रेन्द्रिये अपि अस्ति क्रियारहितत्वम् अस्ति इति कारणात् श्रोत्रेन्द्रियं यत्र कुत्रापि न गन्तुं शक्यते
तस्मिन् क्रिया पर्यवसति
हा क्रिया न सम्भवति श्रोत्रेन्द्रियं यत्र कुत्रापि न गन्तुं शक्यते इति पर्यवसति अत्र उदाहरणार्थं चक्षुरिन्द्रियस्य विषये किं भवति इति दत्तमस्ति चक्षुरिन्द्रियं तु इन्द्रियमेव तस्य स्वरूपं तैजसं तेजः तु मूर्तद्रव्यम् अस्ति तस्मिन् क्रिया वर्तुं शक्यते यदि वयम् अग्रे स्थितस्य घटस्य दर्शनं कुर्मश्चेत् तत्र किं भवति इत्युक्ते चक्षुरिन्द्रियं द्रष्टायाः बहिः गत्वा घटं पर्यन्तं गच्छति तत् तस्य स्वरूपं तैजसम् इति कृत्वा तस्मिन् क्रिया भवितुम् अर्हति इति कृत्वा तेन कारणेन वयं घटस्य दर्शनं प्राप्यते किन्तु श्रोत्रेन्द्रियं श्रोत्रेन्द्रिये तादृशसामर्थ्यं नास्ति श्रोत्रेन्द्रियं यत्र कुत्रापि न गन्तुं शक्यते आकाशस्वरूपत्वात् इति कारणात् इदानीमपि प्रश्नः स्थास्यति तिष्ठति एव श्रोत्रेन्द्रियं यत्र श्रोता कुत्र अस्ति तदेव श्रोत्रेन्द्रियमपि अस्ति शब्दः वक्तुः मुखे एव इदानीमपि तिष्ठति इति कृत्वा सम्बन्धः न भवति चेत् कथं शब्दज्ञानं प्राप्यते इति प्रश्नः इदानीमपि वर्तते
प्रश्नः अस्ति वा अस्तु हा समीचीनं महोदय भवतः उक्तं समीचीनतया उक्तम् अस्तु अत्र प्रश्नः अस्ति वा इन्द्रियस्य गमनं कथं किमर्थं तस्य गमनं तस्मिन् क्रिया भवति वा न
अत्र भगिनि गमनं न उच्यते न तत्र गमनं
यातु इति अस्ति खलु तत्र या इत्युक्ते कश्चन सम्बन्धः भवति इन्द्रियस्य सम्बन्धः पदार्थेन सह, इत्युक्ते घटः अस्ति चेत् चक्षुरिन्द्रियेण चक्षुरिन्द्रियस्य सम्बन्धः पदार्थेन सह भवति, येन घटस्य प्रत्यक्षं भवति. तदेव अत्र
अपि च प्राप्य इति पदमस्ति भगिनि, तत्र चक्षुरिन्द्रियस्य क्रिया भवति तेन घटं प्रति प्राप्य युक्त्वा प्रत्यक्षं जनयति इति अस्ति. प्राप्य इत्युक्ते गमनमेव.
आम् 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 समीचीनम् अस्तु. अग्रे राजेन्द्रमहोदय.
आम् आं भगिनि. इन्द्रियाणां स्वभावः एषः यत् प्राप्यकारित्वं यत् प्राप्यकारित्वं को अर्थः यस्य पदार्थस्य प्रत्यक्षम् इन्द्रियेण भवति तेन तस्य सम्बन्धः संयोगः समवायः वा भवति एव. कुतः एतत् यदि स्वसम्बन्धम् अपि अर्थं चक्षुरादीनि यापयेयुः तदा द्वितीयादि द्वितीयादिव्यवहितानां अपि ज्ञानं जनयेयुः. भित्यादिव्यवहितानाम् अपि ज्ञानं जनयेयुः. अथ इन्द्रियाणां स्वभावः एषः यत् प्राप्यकारित्वम् इन्द्रियाणां स्वभावः एषः अस्ति यत् ते यत् किमपि रीत्या प्राप्तुं कुर्वन्ति तत् ते. अर्थः कः? यस्य पदार्थस्य प्रत्यक्षम् इन्द्रियेण भवति तेन तस्य सम्बन्धः संयोगः समवायः वा भवति एव. यस्किमपि पदार्थस्य प्रत्यक्षं भवति केनपि इन्द्रियेण तत् तेन सह तस्य कोऽपि सम्बन्धः भवति एव. यत् संयोगः भवतु अथवा समवायसम्बन्धः भवतु यत्किमपि सम्बन्धः भवतु तत् सम्बन्धः तु अस्ति एव. यदा यस्य पदार्थस्य प्रत्यक्षम् इन्द्रियेण सह केनपि विशेष इन्द्रियेण सह गच्छति. कुतः एतत्? यदि स्व असम्बद्धम् अपि अर्थं चक्षुरादीनिं यापयेयुः. यदि स्वस्थिति इन्द्रियेण असम्बद्धम् अपि अर्थं चक्षुरादीनिं यापयेयुः. यदि असम्बद्ध पदार्थम् अपि चक्षुरादीनां इन्द्रियैः यापयेयुः तदा द्वितीयादिव्यवहितानाम् अपि ज्ञानं जनयेयुः. तदा यदि कोऽपि पदार्थः तत् द्वितीयादिव्यवहृतानाम् अपि तत् मध्ये भीतिः अस्ति यत् कोऽपि अत्र दृष्टा अस्ति तत् मध्ये भीतिः अस्ति तत् भीतिः अपेक्षु भीति अनन्तरं यत् किमपि पदार्थः तत्र भवति तत् तत्र तु चक्षुरा यत् कोऽपि इन्द्रियः अस्ति तत् ते ज्ञातुं शक्नुवन्ति यथा तत्र तेषां सामर्थ्यम् अस्ति असम्बद्ध अर्थमपि ज्ञापनं शक्नुवन्ति ते न च तथा दृश्यं तथा न भवति. यथा अत्र महोदयेन उक्तवन्तः महोदयेन उक्तवान् तत् यथा कोऽपि घटः अस्ति प्रकोष्ठे कोऽपि बहिः अस्ति प्रकोष्ठस्य बहिः अस्ति सः तु घटं न द्रष्टुं शक्नोति न ज्ञातुं शक्नोति यथा तत् मध्ये भीतिः अस्ति तत् कारणात् तत् अन्यथा तथा न दृष्टं यत् कोऽपि सम्बन्धः नास्ति यत् संयोगः समवायः कोऽपि सम्बन्धः न भवति तदनन्तरं तत्र ज्ञानं न उत्पद्यते तस्य पदार्थस्य.
परन्तु अत्र इन्द्रियस्य सम्बन्धः इति मुख्यविषयः खलु.
आमां
न तु मनुष्यस्य सम्बन्ध इन्द्रियस्य इत्युक्ते चक्षुरिन्द्रियस्य सम्बन्धः न भवति घटेन सह खलु. आं महोदय. हरि ओम्
अग्रे
भगिनि. इन्द्रियेण सह संयोग वा समवायसम्बन्धः भवति वा
इति अस्ति, परन्तु कथम् इति प्रायः अग्रे दीयते इति मन्ये. कथं समवायसम्बन्धः वा संयोगसम्बन्धः तु मन्ये, परन्तु समवायसम्बन्धः कथम् इति अहं न जानामि. प्रायः अग्रे आयाति इति मन्ये.
द्वयोगसम्बन्धः एव भवति किल भगिनि? श्रोत् इन्द्रियं तु द्रव्यमेव.
आम् आम् द्रव्ययोः
मध्ये संयोगः एव
सम्बन्धः एव, परन्तु अत्र किमर्थं समवायः इति दत्तमस्ति?
समवायो वा न भवत्येव इति किमर्थम् इत्युक्ते कपालघटयोः मध्ये समवायसम्बन्धः, यद्यपि द्वयमपि द्रव्यं,
परन्तु अत्र इन्द्रियस्य विषयः खलु.
आमां, किन्तु यदा सम्बन्धः वदामश्चेत् तत्र सम्बन्धद्वयमेव अस्ति किल, संयोगः समवायः इति.
महोदय,
द्वयमपि न भवितुम् अर्हति इति.
सामान्यतया सम्बन्धः इत्युक्ते समवाय वा संयोगसम्बन्धः इति, परन्तु अत्र स्पष्टतया दत्तमस्ति यत् पदार्थस्य प्रत्यक्षम् इन्द्रियेण भवति, येन तस्य सम्बन्धः संयोगः समवायः वा भवति इति खलु. अतः एव सरला भगिन्याः प्रश्नः अपि किं कथं वा समवायसम्बन्धः जायते इन्द्रियेण पदार्थस्य सम्बन्धः इति. परन्तु प्रायः अग्रे आयाति इति मन्ये, प्रतीक्षामः. अस्तु. आम् पुष्पा भगिनी पठति वा?
तावदेव कृतं भगिनि.
अतः सम्बन्धः आवश्यकः इति न पठितं
वा?
अस्तु अस्तु. क्षम्यताम्. परन्तु प्रश्नः अस्ति वा अस्मिन् विषये?
समीचीनम्. धन्यवादः.
शुभरात्रिः.